इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रियान्वेषण अभिकरणेन एनआईए इत्यनेन रक्तदुर्गक्षेत्रस्य समीपे कारयान विस्फोट प्रकरणे प्रथम प्रमुख सफलतायाः घोषणा कृता, यस्मिन् राष्ट्रिय राजधान्यां 10 निर्दोष जनाः मृताः, अन्ये च 25 जनाः व्रणिताः अभवन्। अभिकरणेन देहलीतः आमिर राशिद अली नामकं कश्मीर निवासिनं निगडितम्, यो हि आतंक्याक्रमणाय आत्मघाती विस्फोट प्रकरणे उमर नबी इत्यनेन सह षड्यंत्रं कृतवान् आसीत् इति कथ्यते। अभिकरणस्य अनुसारं आक्रमणे संलग्नं कारयानं अभियुक्तस्य आमिर राशिद अली इत्यस्य नाम्ना पंजीकृतम् आसीत्। एनआईए इत्यनेन अधुना पर्यन्तं 370 यावत् साक्षिभिः सह चर्चा कृता, येषु विस्फोटे व्रणिताः अपि सम्मिलिताः सन्ति। बिहार विधानसभा निर्वाचनस्य परिणामस्य घोषणायाः दिनद्वयानन्तरं बिहारस्य मुख्य निर्वाचनाधिकारी विनोद सिंह गुंजियालः राज्य विधानसभायां 43,200 यावत् नवनिर्वाचितानां सदस्यानां सूचीं पटनानगरस्य राजभवने राज्यपालाय आरिफ मोहम्मद खानवर्याय समर्पितवान्। अस्यां सूच्यां एनडीए पक्षस्य 2,200, महागठबंधनस्य 34, एआईएमआईएम दलस्य भारतीय समावेशक दलस्य बहुजन समाज दलस्य च विधायकैः सह सर्वेषां प्रत्याशिनां नामानि समाविष्टानि सन्ति। अत्रान्तरे भारतस्य निर्वाचनायोगेन विधानसभा निर्वाचनस्य उपनिर्वाचनस्य च आयोजनस्य अनन्तरं बिहारराज्ये 6 राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च आदर्शाचार संहिता अपसारिता। बिहारराज्ये विधानसभा निर्वाचनस्य समाप्तेः अनन्तरं नूतन सर्वकारस्य निर्माण विषये एनडीए पक्षस्य 5 घटकदलानां मध्ये विचारः प्रचलति। भाजपा, जनता दल यूनाइटेड, लोक जनशक्ति राम विलास दलम, हिन्दुस्तानी आवाम मोर्चा, राष्ट्रिय लोक मोर्चा च इत्येतेषां मध्ये नूतनस्य सर्वकारस्य निर्माणस्य विषये, मन्त्रिमण्डलस्य प्रतिनिधित्वस्य च विषये, अन्येषु प्रमुखेषु विषयेषु निरन्तरं चर्चा प्रचलन्ति। पूर्वं केन्द्रीय गृह राज्यमन्त्री नित्यानन्द रायः, उपमुख्यमन्त्री विजयकुमार सिन्हा इत्यादयः भाजपेति दलस्य वरिष्ठ नेतारः राष्ट्रिय लोकमोर्चा अध्यक्षेन उपेन्द्र कुशवाहा इत्यनेन सह पटनानगरे जेडीयू अध्यक्षेन तथा मुख्यमन्त्रिणा नीतीशकुमारेण सह तस्य निवासस्थाने मिलितवन्तः। भाजपेति दलस्य राज्य अध्यक्षः डॉ दिलीप जायसवालः अपि सायंकाले मुख्यमन्त्रिणा सह मेलनं कृतवान्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य हरियाणाराज्यस्य फरीदाबाद नगरे भविष्यति। उत्तरक्षेत्र परिषदः एनजेडसी सभायाः अध्यक्षता करिष्यति। अस्यां सभायां पंजाब, हरियाणा, हिमाचल प्रदेशानां मुख्यमन्त्रिणः, दिल्ली, जम्मू कश्मीर, लद्दाख राज्यानां उपराज्यपालाः, चण्डीगढ़स्य प्रशासकं च समेत्य अन्येपि सभायां भागं ग्रहीष्यन्ति। 32वें एनजेडसी सभायां राज्यसर्वकारेषु समन्वयः, जलविभाजन विषयाः, विकास कार्याणि च चर्चिताः भविष्यन्ति। भारतीय पुरुष क्रिकेट प्रतिस्पर्धायां दक्षिणाफ्रिका दलेन कोलकातायाः ईडन्स गार्डन्स क्रीडांगणे भारतीय क्रिकेट दलं 30 धावनांकैः पराजितम्। भारतीय दलं 93 धावनांकेषु एव समाप्तमासीत्। तत्र च अफ्रीकादलेन भारताय 24,100 धावनांकानां लक्ष्यं प्रदत्तम्, परञ्च भारतीयदलेन तन्न प्राप्तम्। अवधेयं यत् दक्षिणाफ्रीकादलस्य टेम्बा व मुमा इत्यत्र 55 धावनांकानां सर्वाधिकयोगदानं स्वीय दलाय अकरोत् इति वार्ताः।